ईश्वर परम कृष्ण सच्चिदानंद विग्रह अनादिराज गोविंद सर्वकारण कारणम् चिंतामणि प्रकर सद्मसुकल्प वृक्ष लक्षावृतेषु सुरभिरभिपालयन्तम् लक्ष्मी सहस्रशत संभ्रम सेव्यमानम् गोविंदमादिपुरुषं तमहं भजामि वेणुं क्वनन्तमरविन्ददलायताक्षं बर्हावतं समसितं बुधसुन्दराङ्गं कन्दर्पकोटिकमनीयविशेषशोभम् गोविन्दमादिपुरुषं तमहं भजामि आलोलचन्द्रकलशाद्वनमाल्यवंशी रत्नाङ्गदं प्रणयकेलिकलाविलासं श्यामं त्रिभङ्गललितं नियतप्रकाशम् गोविन्दमादिपुरुषं तमहं भजामि अङ्गानि यस्य सकलेन्द्रियवृत्तिमन्ति पश्यन्ति पान्ति कलयन्ति चिरं जगन्ति आनन्दचिन्मयसदुज्ज्वलविग्रहस्य गोविन्दमादिपुरुषं तमहं भजामि अद्वैतमच्युतमनादिमनन्तरूपम् आद्यं पुराणपुरुषं नवयौवनं च वेदेषु दुर्लभमधुर्लभमात्मभक्तौ गोविन्दमादिपुरुषं तमहं भजामि पन्थास्तु कोटिशतवत्सरसम्प्रगम्यो वायोरथापि मनसो मुनिपुङ्गवानाम् सोऽप्यस्ति यत्प्रपदसिंहविचिन्त्य तत्त्वे गोविन्दमादिपुरुषं तमहं भजामि एकोऽप्यसौ रचयितुं जगदण्डकोटिं यक्षक्तिरस्ति जगदण्डचयायदन्ताः अण्डान्तरस्थपरमाणुचयान्तरस्थं गोविन्दमादिपुरुषं तमहं भजामि यद्भावभावितधियो मनुजस्तथैव सम्प्राप्य रूपमहिमासनयानभूषा सुप्तैर्यमेव निगमप्रतितैस्तुवन्ति गोविन्दमादिपुरुषं तमहं भजामि आनन्दचिन्मयरसप्रतिभाविताभिः साभिर्य एव निजरूपतय कलाभिः गोलोक एव निवसत्यखिलात्मभूतो गोविन्दमादिपुरुषं तमहं भजामि प्रेमाञ्जनचुरितभक्तिविलोचनेन सन्तः सदैव हृदयेषु विलोकयन्ति यं श्यामसुन्दरमशिञ्च गुणस्वरूपं गोविन्दमादिपुरुषं तमहं भजामि रामादिमूर्तिषु कलानियमेन तिष्ठा नानावतारमकरोद्भुवनेषु किन्तु कृष्ण स्वयं समभवत् परमः पुमान्यो गोविन्दमादिपुरुषं तमहं भजामि यस्य प्रभा प्रभवतो जगदण्डकोटि कोटिस्वशेष वसुधादि विभूति भिन्नम् तद्ब्रह्म निष्कलमनन्तमशेषभूतम् गोविन्दमादिपुरुषं तमहं भजामि माया हि यस्य जगदण्डशतानि सूते त्रैगुण्यतद्विषयवेदवितायमाना सत्त्वावलम्बि परसत्त्वविशुद्धसत्त्वम् गोविन्दमादिपुरुषं तमहं भजामि आनन्दचिन्मयरसात्मतया मनसु यः प्राणिनां प्रतिफलं स्मरतामुपेत्य लीलायतेन भुवनानि जयत्यजस्रम् गोविन्दमादिपुरुषं तमहं भजामि गोलोकनामि निजधामि तले च तस्य देवी महेश हरिधाम सुतेषु तेषु ते प्रभाव निचय विहितस्य येन गोविन्दमादिपुरुषं तमहं भजामि सृष्टि स्थिति प्रलय साधन शक्तिरेका ध्याये वयस्य भुवनानि बिभर्ति दुर्गा इच्छानुरूपमपि यस्य च चेष्टते सा गोविन्दमादिपुरुषं तमहं भजामि क्षीरं यथा दधिविकारविशेषयोगा सञ्जायते न हि ततः पृथगस्ति हेतोः यः शम्भुतामपि तथा समुपैति कार्या गोविन्दमादिपुरुषं तमहं भजामि दीपाचिरेव हृदशान्तरमभ्युपेत्य दीपायते विवृतहेतुसमानधर्मा यस्ताद एव हि च विष्णुतया विभाति गोविन्दमादिपुरुषं तमहं भजामि यः कारणार्णवजले भजति स्म योग निद्रामनन्तजगदण्डसरोमकूपः आधारशक्तिमवलम्ब्य परां स्वमूर्तिं गोविन्दमादिपुरुषं तमहं भजामि यस्यैकनिःश्वसितकालमथावलम्ब्य जीवन्ति लोम विलजा जगदण्डनाथा विष्णुर्महान् स इह यस्य कला विशेषो गोविन्दमादिपुरुषं तमहं भजामि भास्वान् यथा स्म चकलेषु निजेषु तेजः स्वीयं कियत् प्रकटयत्यपि तद्वदत्र ब्रह्माय एष जगदण्डविधानकर्ता गोविन्दमादिपुरुषं तमहं भजामि यत्पादपल्लवयुगं विनिधाय कुम्भ द्वन्द्वे प्रणामसमये सगणाधिराजाः विघ्नान् विहन्तु मलमस्य जगत्त्रयस्य गोविन्दमादिपुरुषं तमहं भजामि। अग्निर्महि गगनमम्बुमरुर्दिशश्च कालस्तथात्ममनसि चिजगत्त्रयाणि यस्माद्भवन्ति विभवन्ति विशन्ति यं च गोविन्दमादिपुरुषं समहं भजामि यक्षक्षुरेश सविता सकलग्रहाणां राजा समस्तसुरमूर्तिरशेष तेजः यस्याज्ञया भ्रमति संवृतकालचक्रो गोविन्दमादिपुरुषं तमहं भजामि धर्मोऽथ पापनिचयश्रुतयस्तपांसि ब्रह्मादिकीटपटगावधयश्च जीवा यद्दत्तमात्रविभवप्रकटप्रभाव गोविन्दमादिपुरुषं तमहं भजामि यस्विन्द्रगोपमथवेन्द्रमहोस्वकर्म बन्धानुरूपफलभाजनमासनोति कर्माणि निर्दहति किन्तु च भक्तिभाजा गोविन्दमादिपुरुषं तमहं भजामि यं क्रोधकामसहजप्रणयादिभीति वात्सल्यमोहगुरुगौरवसेव्यभावैः सञ्चिन्त्य तस्य सदृशीं तनुमापुरेते गोविन्दमादिपुरुषं तमहं भजामि श्रियः कान्तः कान्तः परमपुरुषः कल्पतरवो द्रुमा भूमिश्चिन्तामणिगणमयितोऽयममृतम् कथागानं नगमनं गमनमपि वंसि प्रियसखी चिदानन्दं ज्योतिः परमपि तदा स्वाद्यमपि च स यत्र क्षिरादि स्रवति सुरभिव्यश्च सुमः निमेषाध्याख्यो वा व्रजति न हि यत्रापि समय भजे श्वेतदीपं समहम् इह गोलोकमितियम् विदन्तस्ते सन्तः चितिविरल चारा कतिपये ईश्वर परमा कृष्णा सच्चिदानन्द विग्रह अनादिरादि गोविन्द सर्वकारणकारणम् चिन्तामणि प्रकर सद्मसुकल्पवृक्ष लक्षावृतेषु सुरभिरभिपालयन्तम् लक्ष्मीसहस्रशतसम्भ्रमसेव्यमानम् गोविन्दमादिपुरुषं तमहं भजामि वेणुं पनन्तमरविन्ददलायताक्षम् बर्हावतं समसितं बुधसुन्दराङ्गम् कन्दर्पकोटिकमनीयविशेषशोभम् गोविन्दमादिपुरुषं तमहं भजामि आलोलचन्द्रकलसाद्वनमाल्यवंशी रत्नाङ्गदं प्रणयकेलिकलाविलासम् श्यामं त्रिभङ्गललितं नियतप्रकाशम् गोविन्दमादिपुरुषं तमहं भजामि అంగాని యస్య సకలేంద్రియ వృత్తిమంతి పశ్యంతి పాంతి కలయంతి చిరం జగంతి ఆనంద చిన్మయ సదుజ్వల విగ్రహస్య గోవిందమాది పురుషం తమహం భజామి. అద్వైతమచ్యుతమనాదిమనంతరూపం ఆద్యం పురాణ పురుషం నవయౌవనం చ వేదేషు దుర్లభమధుర్లభమాత్మభక్తౌ గోవిందమాది పురుషం తమహం భజామి. పంథాస్తు కోటిశతవత్సర సంప్రగమ్యో వాయో తథాపి మనసో ముని పుంగవానా సోప్యస్తి యత్ ప్రపదసిన్య విచింత్య తత్వే గోవిందమాది పురుషం తమహం భజామి. ఏకోప్యసౌ రచయితుం జగదండకోటిం యక్షక్తిరస్తి జగదండ చయాయదంతః అండాంతరస్థ పరమాణు చయాంతరస్థం గోవిందమాది పురుషం తమహం భజామి. యద్భావభావిత ధియో మనుజస్తథైవ సంప్రాప్య రూపమహిమాసనయానభూషః సూక్తైర్యమేవ నిగమ ప్రతితస్తువంతి గోవిందమాది పురుషం తమహం భజామి. ఆనంద చిన్మయ రస ప్రతిభావితాభి కావీర్య ఏవ నిజ రూపతయ కళాభి గోలోక ఏవ నివసత్యఖిలాత్మభూతో గోవిందమాది పురుషం తమహం భజామి. ప్రేమాంజనచురితభక్తి విలోచనేన సంతః సదైవ హృదయేషు విలోకయంతి యం శ్యామ సుందరమకించ గుణస్వరూపం గోవిందమాది పురుషం తమహం భజామి. రామాదిమూర్తిషు కళానియమేన తిష్ఠా నానావతారమకరోద్భువనేషు కింతు కృష్ణ స్వయం సమభవత్ పరమః పుమాన్యో గోవిందమాది పురుషం తమహం భజామి. యస్య ప్రభా ప్రభవతో జగదండకోటి కోటిస్వశేష వసుధాది విభూతి భిన్నం తద్బ్రహ్మ నిష్కలమనంతమశేషభూతం గోవిందమాది పురుషం తమహం భజామి. మాయా హి యస్య జగదండ శతాని సూతే త్రైగుణ్య తద్విషయ వేద వితాయమానా సత్వావలంబి పరసత్వ విశుద్ధ సత్వం గోవిందమాది పురుషం తమహం భజామి. ఆనంద చిన్మయ రసాత్మతయా మనసు యః ప్రాణినాం ప్రతిఫలం స్మరతాం ఉపేత్య లీలాయతేన భువనాని జయత్యజస్రం గోవిందమాది పురుషం తమహం భజామి. గోలోకనామి నిజధామి తలే చ తస్య దేవీ మహేశ హరిధామ సుతేషు తేషు Tete prabhava nishaya vihitascha yena Govindamadi purusham tamaham bhajami Srishti siti pralaya sadhana shakti reka Chaye vayasya bhuvanani bibharti durga Ichchānurūpam api yasya ca cheṣṭate sa Govindamādi purusham tamaham bhajāmi Śīraṁ yathā dadhi vikāra viśeṣa yoga Sanjāyate nahi tatah pṛtagasti heto Yah sambhutam api tatha samupaiti karya Govindamadi purusham tamaham bhajami Deepachireva hidashantaram abhyupetya Deepayate vivrtahetu samana dharma Yastāda eva hiṣa viṣṇu tayā vibhāti Govindamādi purusham tamaham bhajāmi Yah kāranārnava jhale bhajati sma yoga Nidrāmananta jagadanda saroma kūpa Ādhāra śaktim avalambya parām svamūrtim Govindamādi purusham tamaham bhajāmi Yasyaika nishvasita kālam athāvalambya Jīvanti loma vilajā jagadanda nāthā Vishnur Mahansa Ihayasya Kala Vishesho Govindamadi Purusham Tamaham Bhajami Bhaswan Yathasma Shakaleshu Nijeshu Teja Viyam Kiyat Prakatayatya Pitadvadatra Brahmāya eṣa jagadanda vidhāna kartā Govindamādi purusham tamaham bhajāmi Yatpāda pallava yugam vinidhāya kumbha Dvandve pranāma samaye saganādhi rājā Vignan vihantu malamasya jagatrayasya Govindamadi purusham tamaham bhajami Agnir mahi gaganamambu marurdishasya Kalasthathatma manasichi jagatrayani Yasmād bhavanti vibhavanti viśanti yamcha Govindamādi purusham tamaham bhajāmi Yakchak suresha savita sakala grahana Rājā samasta suramurti rasesha teja Yasyādnaya brahmati sambrutakāla chakro Govindamādi purusham tamaham bhajāmi Dharmotha pāpa nishaya sutayasta pāṃsi Brahmādhi kīta pataga vadhayasya jīvā Yaddatta mātra vibhava prakata prabhāva Govindamādi purusham tamaham bhajāmi Yasvindra gopa mathavendra mahosva karma Bandhanurūpa falabhājana mātanoti Karmāni nirdahati kintu ca bhakti bhājā Govindamādi purusham tamaham bhajāmi यम क्रोध काम सहज प्रणयादि भीति वात्सल्य मोह गुरु गौरव सेव्य भावैः संचिन्त्य तस्य सदृशिं तनुमापुरेते गोविन्दमादिपुरुषं तमहं भजामि। श्रियः कान्तः कान्तः परमपुरुषः कल्पतरवो द्रुमा भूमे चिन्तामणि गणमयितोऽयममृतम् कथा गानं नगमनं गमनमपि वंशि प्रियसखी चिदानन्दं ज्योतिः परमपि तदा स्वाद्यमपि च सयात्र क्षिराधि स्रवति सुरभीव्यश्च सुमः निमेषाध्याख्यो वा व्रजति न हि यत्रापि समय भजे श्वेतदीपं समहम् इह गोलोकमितियम् विदन्तस्ते सन्तः स्थितिविरल चारा कतिपये। ईश्वर परम कृष्ण सच्चिदानंद विग्रह अनादिरादि गोविंद सर्व कारण कारणम् चिंतामणि प्रकर सद्मसुकल्प वृक्ष लक्षावृतेषु सुरभिरभिपालयन्तम् लक्ष्मीसहस्रशतसम्भ्रमसेव्यमानम् गोविन्दमादिपुरुषं तमहं भजामि। वेणुं क्वनन्तमरविन्ददलायताक्षम् बर्हावतं समसितं बुधसुन्दराङ्गम् कन्दर्पकोटिकमनीयविशेषशोभम् गोविन्दमादिपुरुषं तमहं भजामि। आलोलचन्द्रकलसाद्वनमाल्यवंशी रत्नाङ्गदं प्रणयकेलिकलाविलासम् श्यामं त्रिभङ्गललितं नियतप्रकाशम् गोविन्दमादिपुरुषं तमहं भजामि। अङ्गानि यस्य सकलेन्द्रियवृत्तिमन्ति पश्यन्ति पान्ति कलयन्ति चिरं जगन्ति आनन्दचिन्मय सदुज्ज्वलविग्रहस्य गोविन्दमादिपुरुषं तमहं भजामि। अद्वैतमच्युतमनादिमनन्तरूपम् आद्यं पुराणपुरुषं नवयौवनं च वेदेषु दुर्लभमधुर्लभमात्मभक्तौ गोविन्दमादिपुरुषं तमहं भजामि। पन्थास्तु कोटिशतवत्सरसं प्रगम्यो वायोरथापि मनसो मुनिपुङ्गवानां सोऽप्यस्ति यत्प्रपदसिन्यविचिन्त्य तत्त्वे गोविन्दमादिपुरुषं तमहं भजामि। एकोऽप्यसौ रचयितुं जगदण्डकोटिम् यक्षक्तिरस्ति जगदण्डचयायदन्ताः अण्डान्तरस्थपरमाणुचयान्तरस्थम् गोविंदमादिपुरुषं तमहं भजामि। यद्भावभावितधियो मनुजस्तथैव संप्राप्य रूपमहिमातनयानभूषाः सुप्तैर्यमेव निगम प्रतितस्तुवन्ति गोविंदमादिपुरुषं तमहं भजामि। आनन्दचिन्मयरसप्रतिभाविताभिः साधीर्य एव निजरूपतय कलाभिः गोलोक एव निवसत्यखिलात्मभूतो गोविन्दमादिपुरुषं तमहं भजामि। प्रेमाञ्जनचुरितभक्तिविलोचनेन सन्तः सदैव हृदयेषु विलोकयन्ति।